इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका ऋचा झा। अथ वार्ताः। असम पश्चिम बंगाल केरलम तमिलनाडु राज्येषु केन्द्र शासित प्रदेशे पुडुचेरी इत्यत्र विधानसभा निर्वाचनेभ्यः अद्य मतगणनायै सर्वाः सज्जताः जाताः। मतगणना प्रातः 8 वादने प्रारप्स्यते। प्रैष्य मतपत्राणां गणना सर्वप्रथमं भविष्यति तथा वैद्युतिकी मतदान यन्त्राणां गणना प्रातः 8:30 वादने प्रारप्स्यते। असम राज्ये 26 आसनेभ्यः केरलम राज्ये 44 आसनेभ्यः तमिलनाडु राज्ये 34 आसनेभ्यः तथा पुडुचेरी इत्यत्र 30 विधानसभासनेभ्यः मतगणना भविष्यति। पश्चिम बंगाले 93 आसनेभ्यः अद्य मतगणना भविष्यति। फाल्टा विधानसभायै पुनर्मतदानं मई मासस्य 21 दिनांके भविष्यति। तत्रैव मतगणना च मई मासस्य 24 दिनांके भविष्यति।
जनादेश 2026।
असम, केरलम, तमिलनाडु, पश्चिम बंगाल और पुदुचेरी के चुनाव नतीजों पर विशेष कार्यक्रम आकाशवाणी के साथ
आज सुबह 8:30 बजे से
मतगणना की पल पल की खबर,
हर सीट की सटीक जानकारी,
संवाददाताओं से ताज़ा हाल
और विशेषज्ञों द्वारा नतीजों का विश्लेषण
आकाशवाणी गोल्ड और अन्य फ्रीक्वेंसी पर सुनिए।
जनादेश 2026।
भारतीयांतरिक्ष नवाचारेण गैलेक्स आए इत्यनेन संयुक्त राज्य अमेरिकायाः कैलिफोर्निया इत्येतस्मात् स्थलात् स्पेस एक्स इत्येतस्य फाल्कन 9 रॉकेट इत्यनेन विश्वस्य प्रथमः ऑप्टोसार इति उपग्रहः मिशन दृष्टेः प्रक्षेपणम् कृतम्। 90 किलोग्राम मिता मिशन दृष्टि नैज भारतीय संस्था द्वारा निर्मित बृहत्तम पृथ्वी निरीक्षणोपग्रह अस्ति। उपराष्ट्रपति सीपी राधाकृष्णन, प्रधानमंत्री नरेन्द्र मोदी च मिशन दृष्टि उपग्रहस्य सफल प्रक्षेपणस्य प्रशंसां कृत्वा एतम् उपग्रहं भारतस्य अंतरिक्षस्य नवानवेषणस्य च यात्रायां प्रमुख सोपान रूपेण वर्णितवन्तौ। विदेश मन्त्रालयः अवदत् यत् 45-19 शततमाद् वर्षात् कैलाश मानसरोवर यात्रायै लिपुलेख इति दीर्घ मार्गः अस्ति, एषः नूतन विकासः नास्ति इति। विदेश मन्त्रालयस्य आधिकारिक प्रवक्ता रणधीर जायसवालः कैलाश मानसरोवर यात्रायाः सन्दर्भे सीमा प्रकरणे नेपालस्य विदेश मन्त्रालय द्वारा कृतानां टिप्पणीनां विषये प्रसार माध्यमानां प्रश्नानां उत्तरं दत्तवान्। असौ उक्तवान् यत् 45-19 शततमाद् वर्षात् कैलाश मानसरोवर यात्रायै लिपुलेख इति दीर्घ मार्गः अस्ति, अनेन मार्गेण यात्रा दशकेभ्यः प्रचलति, अतः एषः नूतनः विकासः नास्ति इति। रक्षामन्त्री राजनाथ सिंहः अद्य उत्तरप्रदेशस्य प्रयागराजे रक्षात्रिवेणी संगमः, यत्र प्रौद्योगिक्याः उद्योगस्य सैनिकक्षमतायाः संगमः भवति इत्येतस्य विषयम् आलक्ष्य उत्तर प्रौद्योगिकी संगोष्ठ्याः उद्घाटनं करिष्यति। रक्षामन्त्रालयः संसूचितवान् यत् एतत् संगोष्ठी परिचालनं सम्बद्ध आह्वानानां निवारणाय अत्याधुनिक स्वदेशीय प्रौद्योगिकीनां प्रदर्शनस्य एकीकरणस्य च सजीव मञ्चरूपेण कार्यं करिष्यति। केन्द्रीय विधि मन्त्री अर्जुन राम मेघवालः ह्यः रांचीनगरे उच्च न्यायालयस्य अधिवक्तृणां सम्मेलने भागम् अगृह्णात्। आईपीएल इति क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स दलेन पंजाब किंग्स दलं 4 पराजितम् इति वार्ताः।